इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। राष्ट्रम् अद्य पूर्व प्रधानमन्त्रिणम् अटल बिहारी वाजपेयी वर्यम् एकोत्तरैकशततमीं जयन्तीमालक्ष्य श्रद्धाञ्जलिं समर्पयति। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र मोदी अद्य लखनऊ नगरे पूर्व प्रधानमन्त्रिणं समर्पितस्य राष्ट्रप्रेरणास्थलस्य उद्घाटनं कृतवान्। प्रधानमन्त्रिणा नरेन्द्र मोदिना कथितं यत् सांसद खेल महोत्सवः जनेषु आन्दोलनरूपेण विकसितः अस्ति, यस्मिन् समाजस्य प्रत्येकस्य वर्गस्य सहभागिता अस्ति। नवी मुम्बय्याः अन्ताराष्ट्रिय विमानस्थानके अद्यारभ्य व्यावसायिक विमानयानानि समारब्धानि। बांग्लादेश नेशनलिस्ट पार्टी बीएनपी इति दलस्य कार्यवाह अध्यक्षः तारिक रहमानः संसदीय निर्वाचनात् प्राक् अद्य बांग्लादेशं प्रत्यागतवान्। अपि च अशेषे हि देशे अद्य क्रिसमस पर्व ईसा मसीहस्य जन्मालक्ष्य हर्षोल्लासेन आमान्यते। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी अद्य लखनऊ नगरे पूर्व प्रधानमन्त्रिणम् अटल बिहारी वाजपेयी वर्यम् समर्पितस्य राष्ट्रप्रेरणास्थलस्य उद्घाटनं कृतवान्। सः तत्र एकां जनसभाम् अपि सम्बोधितवान्। पूर्व प्रधानमन्त्रिणः भारतरत्नस्य अटल बिहारी वाजपेयी वर्यस्य एकाधिकैकशततमस्य जन्मदिवसस्यावसरे लखनऊ नगरे जनसभां सम्बोधयन् प्रधानमन्त्री उक्तवान् यत् गत एकादशवर्षेभ्यः तस्य सर्वकारः समाजस्य प्रत्येकस्य नागरिकस्य कल्याणाय परिश्रमं कुर्वन्नस्ति, तथा च तेभ्यः सर्वासां योजनानां लाभं कस्यापि पक्षपातं विनैव प्रददाति। एतदेव सुशासनं तथा यथार्थधर्मनिरपेक्षता अस्ति। सः लखनऊनगरे राष्ट्रप्रेरणास्थलस्य उद्घाटनम् अकरोत्, यत् स्वतन्त्रभारतस्य प्रकाशितानां परम्परायाः सम्माने निर्मितमस्ति। स्वस्य भाषणे प्रधानमन्त्री अवदत् यत् सर्वकारीययोजनानां सन्तृप्तिः तस्य सर्वकारस्य आदर्शवाक्यमस्ति। अधुना कोटिशः निर्धननागरिकाः ताभिः योजनाभिः लाभान्विताः सन्ति।
ये राष्ट्र प्रेरणा स्थल हमें संदेश देता है कि हमारा हर कदम, हर पग, हर प्रयास राष्ट्र निर्माण के लिए समर्पित हो। सबका प्रयास ही विकसित भारत के संकल्प को सिद्ध करेगा। मैं लखनऊ को, उत्तर प्रदेश को, पूरे देश को इस आधुनिक प्रेरणा स्थली की बधाई देता हूं।
प्रधानमन्त्रिणा आरोपितं यत् राष्ट्रियनायकानां कृते न्यायं न कृत्वा कांग्रेसदलेन सर्वेषां वस्तुस्थलानां च नामानि केवलं स्वदलस्य नेतृणां नामसु एव स्थापितम्। उत्तरप्रदेशस्य परिवर्तितं चित्रं प्रदर्शयन् प्रधानमन्त्रिणा उक्तं यत् अधुना राज्यं विकासस्य पर्यायपदमस्ति। रक्षामन्त्री राजनाथसिंहः, राज्यस्य मुख्यमन्त्री योगी आदित्यनाथः, राज्यमन्त्रिणः, अन्ये वरिष्ठमन्त्रिणः च अस्मिन् अवसरे उपस्थिताः आसन्। राष्ट्रमद्य पूर्व प्रधानमन्त्रिणम् अटल बिहारी वाजपेयी वर्यम् एकोत्तरैकशततमीं जयन्तीमालक्ष्य श्रद्धाञ्जलिं समर्पयति। अस्मिन् अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः, उपराष्ट्रपति सीपी राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र मोदी च अद्य राष्ट्रिय राजधान्यां तस्य समाधौ पुष्पाञ्जलिं समर्पितवन्तः। अपि च पूर्व उपराष्ट्रपति एम वेंकैया नायडू, लोकसभाध्यक्षः ओम बिरला, केन्द्रीयः मन्त्री जगत प्रकाश नड्डा, भाजपेति दलस्य राष्ट्रिय कार्यकारी अध्यक्षः नितिन नवीनः, नवदिल्ल्याः मुख्यमन्त्री रेखा गुप्ता, अन्ये च गणमान्यजनाः तस्मै पुष्पाञ्जलिं समर्पितवन्तः। प्रधानमन्त्रिणा नरेन्द्र मोदिना कथितं यत् सांसद खेल महोत्सवः जनेषु आन्दोलनरूपेण विकसितः अस्ति, यस्मिन् समाजस्य प्रत्येकस्य वर्गस्य सहभागिता अस्ति। अद्य दृश्य श्रव्य माध्यमेन सांसद खेल महोत्सवं सम्बोधयन् श्रीमोदी अवदत् यत् महोत्सवः देशाय सहस्रशः प्रतिभाशाली क्रीडका प्रददाति। प्रधानमन्त्री अवदत् यत् सांसद खेल महोत्सवस्य स्तरं तस्य प्रभावः च वर्धितः अस्ति।
आज सांसद खेल महोत्सव एक जन आंदोलन बन चुका है। देश भर में 290 से अधिक सांसदों की इस कार्यक्रम का योजना करना, लाखों नौजवानों को जोड़ना और 1 करोड़ से ज्यादा युवा खिलाड़ियों द्वारा इसमें रजिस्ट्री करवाना देश के हर कोने की हिस्सेदारी है और शहरों से लेकर गांव तक हर पृष्ठभूमि के युवाओं की सहभागिता, ये दिखाता है इसका स्केल कितना बड़ा है।
श्री मोदी अवदत् यत् क्रीडा महोत्सव युव विकासस्य माध्यमेन राष्ट्रनिर्माणस्य मन्त्रेण सह दृढ़ स्तंभ भवति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्लीस्थे राष्ट्रपतिभवने संथाली भाषायां संविधानं विमोचितवती। अस्मिन् अवसरे राष्ट्रपतिः अवदत् यत् सर्वेषां संथालीजनानां कृते एतत् गौरवस्य आनन्दस्य च विषयः अस्ति यत् संविधानम् अधुना संथालीभाषायां ओल्चिकी लिप्यां च समुपलभ्यते। सा अवदत् यत् संथाली समुदायस्य जनाः स्वभाषायां संविधानं पठितुम् अवगन्तुं च शक्नुवन्ति। अस्मिन् अवसरे उपराष्ट्रपतिः सीपी राधाकृष्णन राष्ट्रपति द्रौपदी मुर्मू वर्यायाः कृते कृतज्ञतां प्रकटितवान्। यया मार्गदर्शने एषः उपक्रमः गृहीतः। सः अवदत् यत् एषः महत्वपूर्णः उपक्रमः संथाली भाषा भाषिणां जनानां कृते संविधानं पठितुम् अवगन्तुं च समर्थः भविष्यति। नवी मुम्बय्याः अन्ताराष्ट्रिय विमानस्थानके अद्यारभ्य व्यावसायिक विमानयानानि आरब्धानि जातानि। भारतस्य नागर विमानन क्षेत्रस्य कृते एषः महत्वपूर्णोपलब्धिः अस्ति। एतद् वायुयानस्थानकं मुम्बई महानगरस्य क्षेत्रस्य कृते विमानयात्रा क्षमतायाः विस्तारः अपि करोति। नवी मुम्बई अन्ताराष्ट्रिय विमानस्थानके परिचालनम् आरम्भं कुर्वन् इण्डिगो समवायस्य प्रथमं विमानं 6E460 बेंगलुरुतः आगत्य प्रातः 8 वादने नवी मुम्बय्याः अन्ताराष्ट्रिय विमानस्थानके सम्प्राप्तम्। बांग्लादेश नेशनलिस्ट पार्टी बीएनपी इति दलस्य कार्यवाह अध्यक्षः तारिक रहमानः संसदीय निर्वाचनात् प्राक् अद्य बांग्लादेशं प्रत्यागतवान्। यूनाइटेड किंगडम देशे प्रायः 17 वर्षाणां निर्वासनं समाप्य सः लंदन नगरात् विमान बांग्लादेश एयरलाइंस इत्यनेन विमानेन ढाका नगरं सम्प्राप्तवान्, यत् सिलहट नगरे अल्पकालं यावत् विरामस्यानन्तरं प्रातः प्रायः 44:11 हजरत शाहजलाल अन्ताराष्ट्रिय विमानस्थानके प्राप्तवान्। तारिक रहमान इत्यनेन सह तस्य पत्नी डॉ. जुबैदा रहमानः, पुत्री जैमा रहमानः च आसीत्। महासचिवस्य मिर्जा फखरुल इस्लाम आलंगीर इत्यस्य नेतृत्वे बीएनपी इत्यस्य वरिष्ठ नेतारः विमानस्थानकस्य विशिष्ट विश्रामगृहे तस्य स्वागतं कृतवन्तः। राष्ट्रपति द्रौपदी मुर्मुः श्वः नवदिल्ल्यां वीर बाल दिवसस्य अवसरे प्रधानमन्त्री राष्ट्रिय बाल पुरस्कारान् वितरिष्यति। महिला बाल विकास मन्त्रालयः अवदत् यत् अस्मिन् वर्षे 18 राज्यानां केन्द्रशासित प्रदेशानां च 20 बालकाः अस्य पुरस्कारस्य कृते चयनिताः सन्ति, ये वीरता, क्रीडा, समाजसेवा इत्यादिषु विविधक्षेत्रेषु उत्कृष्टं प्रदर्शनं कृतवन्तः। वीर बाल दिवसस्य राष्ट्रिय स्तरस्य कार्यक्रमे प्रधानमन्त्री नरेन्द्र मोदी बालकान् यूनः च सम्बोधयिष्यति इति मन्त्रालयेन सूचितम्। भारतस्य अत्यन्त प्रभावशालिषु ग्रामीण संरचनायाः उपक्रमेषु अन्यतमा प्रधानमन्त्री ग्राम सड़क योजना अद्य 25 वर्षाणि पूरयति। पूर्वं असम्बद्ध ग्रामीण निवासानां सर्वऋतु सम्पर्कं सुनिश्चेतुं 2000तमवर्षस्य दिसम्बर मासस्य 25 दिनांके आरब्धा एषा योजना कृषि विकासस्य, वृत्त्यावसरस्य निर्माणस्य, शिक्षायाः, स्वास्थ्यसेवानां च, उन्नत प्रवेशस्य, निर्धनता निवारणस्य च कृते प्रमुख सहयोगरूपेण उद्भूतम्। अशेषे हि देशे क्रिसमस पर्व हर्षोल्लासेन सह आमान्यते। इति वार्ताः।